सीतापते विधिकराचितकूर्मराज भण्डारितो नृहरितीर्थमुनीन्द्रलब्ध आनन्दतीर्थमुनिवंशयतीन्द्रपूज्य श्रीमूलराम भवतः सुप्रभातम्। सीतापते विधिकराचितकूर्मराज भण्डारितो नृहरितीर्थमुनीन्द्रलब्ध आनन्दतीर्थमुनिवंशयतीन्द्रपूज्य श्रीमूलराम भवतः सुप्रभातम्। श्रीरामदूत हनुमान् यदुनाधराश श्रीभीमसेन वरदौत्यपुरावतार श्रीव्यासहृत्प्रियशमामिक शुद्धबुद्धे श्रीमध्वराज भवतः तव सुप्रभातम्। ब्रह्माज्ञयादिति कुले बहुदोषपूर्णे जातोऽपि भक्तिभरितो भुवनम् समस्तम् योऽपि हनो दिविशदाम्बरशङ्कुकर्ण श्रीराघवेन्द्र भवतः तव सुप्रभातम्। दैत्येश्वरम् हरिगिरोहि हिरण्यकन्तम् योनिनयो हरिपदम् पितरम् स्वभक्त्या प्रह्लादमर्त्य हरिसम्भवकारणात्मन् श्रीराघवेन्द्र भवतः तव सुप्रभातम्। सोमान्वयोद्भव समस्तसुराजमौले भूभारसंहरणतोषिक कृष्णमूर्ते बाह्लीकराज बहुराज सुधर्मभावन् श्रीराघवेन्द्र भवतः तव सुप्रभातम्। श्रीकृष्णदेव नृपतिः सकलम् स्वराज्यम् यस्मै समप्यमलयार्पयदात्मभक्त्या श्रीव्यासराज विदुषाम्बर दिव्यमूर्ते श्रीराघवेन्द्र भवतः तव सुप्रभातम्। श्रीमूलरामपदपङ्कजलोलभृङ्ग श्रीपूर्णबोधमतरम्यसुधाद्विचन्द्र श्रीगौतमान्वयविभासकभव्यसूर्य श्रीराघवेन्द्र भवतः तव सुप्रभातम्। श्रीयान् समस्तनिगमान् त्रिविलोक्य सूक्ष्मे सद्भाटसङ्ग्रहनिषेयदुवर्यवस्त्रे श्रीजैनिनीर्यमभिपूजयतेति मोदात् श्रीराघवेन्द्र भवतः तव सुप्रभातम्। स्पष्टार्थतैलमतिविस्तृतसूक्ष्मवाक्यैः सूत्रार्थभाषकमवेक्ष्य च तन्त्रदीपम् व्यासो यशोभिरभिपूरयते सदायम् श्रीराघवेन्द्र भवतः तव सुप्रभातम्। स्वस्तीयशास्त्रगतमर्थमतोऽधिकम् च दृष्ट्या यदीयकृतिषु प्रणयाति नम्राः अर्चन्ति पाणिनि मुखाय मदाधबोधः श्रीराघवेन्द्र भवतः तव सुप्रभातम्। रम्या सुधा परिमलोल्लसिता च काशे सच्चन्द्रितापि सुशुभे विरसप्रकाश ईकाचले सुरमितैः स्फुटभावदीपैः श्रीराघवेन्द्र भवतः तव सुप्रभातम्। रम्यार्धरत्नपरिभूषित सर्वगात्री सर्वाश्रुतीस्वतिरसा सहितेन्दिरायम् आरोग्य रक्षति सदा निगमान्तराज्ये श्रीराघवेन्द्र भवतः तव सुप्रभातम्। श्रीवेङ्कटाय वरतिम् मणगोपिकाम् वा दम्पत्यनुत्तमतपः फलदैनिकाग्र्या दारिद्र्यदुःखभयभञ्जनपुण्यमूर्ते श्रीराघवेन्द्र भवतात्तव सुप्रभातम् आनन्दतीर्थ जयतीर्थ कवीन्द्रतीर्थ श्रीरामचन्द्र विभुरेन्द्र जयेन्द्रतीर्थ आशीषकम् प्रददत श्रुहयम् कस्मै श्रीराघवेन्द्र भवतात्तव सुप्रभातम् वादीन्द्रतीर्थ सुमतीन्द्र मुखास्तु वन्ति कर्मम् दिनो गुरुगुणस्तवनैरुदारैः त्वाम् पश्यतानुद्रुहाण दयाद्रदृष्ट्या श्रीराघवेन्द्र भवतात्तव सुप्रभातम् गार्हस्थ्यमुत्तममयाचितलब्धभृत्या कष्टेन योनिरबहोह्वधुनाशितान् स्वान् सर्वेष्टलाभपरिपुष्टतनून् करोषि श्रीराघवेन्द्र भवतात्तव सुप्रभातम् श्रीमत्सुधीन्द्रवरयोगि सरस्वतीभ्याम् सम्प्रेरितो यदि वरद्भूर्बहुनाश्रमेण मन्त्रान् जपस्यनुदिनम् जगतीम् पुनासि श्रीराघवेन्द्र भवतात्तव सुप्रभातम् गङ्गादिपुण्यसरितः प्रणयाति बद्धा सद्रत्नहेमजलकुम्भशतैरिदानीम् त्वाम् स्नापयन्ति विधिवत्यजयोगनिद्राम् श्रीराघवेन्द्र भवतात्तव सुप्रभातम् मन्दारपुष्पदधिकुङ्कुममुख्यवस्तु प्रत्यग्धमङ्गलकरम् वनिता मुनीनाम् नीराजनम् विदधतेऽद्यसुरत्नदीपैः श्रीराघवेन्द्र भवतात्तव सुप्रभातम् एते च कश्यपमुखा मुनयस्तुतित्रैः आशीर्वचोभिरधुनाभिषमर्पयन्ति लब्ध्वा त्रिशम्बरमदाभिजनाय दध्याः श्रीराघवेन्द्र भवतात्तव सुप्रभातम् एते नृपाधनक्षयम् बहुवाहनस्थम् आनीयदर्शनकृते बहिरावसन्ति ताम् पालयाद्य कृपया निरपेक्षयोगीन् श्रीराघवेन्द्र भवतात्तव सुप्रभातम् एषा समस्तजनता पररात्रकाले सीताधिकापि दधती वसनम् जलार्द्रम् त्वाम् सेवतेध परिपूरय तत्कविष्टम् श्रीराघवेन्द्र भवतात्तव सुप्रभातम् श्रीमूल राम जय दिग्विजयाच्च रामान् वैकुण्ठवासमधपूजयितुम् समेहि सर्वेऽप्यवीभिः करा विहितात्मकृत्याः श्रीराघवेन्द्र भवतात्तव सुप्रभातम् धन्या इमे तव गुणस्तवनैरसङ्ख्यैः कण्ठोद्गतैर्दश दिशामशुभम् हरन्ति शृण्वन्ति देव सुजनानतकन्धरेण श्रीराघवेन्द्र भवतात्तव सुप्रभातम् छात्रा इमे परिमलादिनिबन्धपाठ्या भागावलोकन कृतः पठनाय सज्जाः उत्तिष्ठपाठय सुधा मधुरारवेण श्रीराघवेन्द्र भवतात्तव सुप्रभातम् शास्त्रेषु पूर्णविशना अपि पण्डितास्ते द्वारा सते स्वबहु संशययापनाय उत्तिष्ठिङ्गिहृदयस्थित संशयांस्तान् श्रीराघवेन्द्र भवतात्तव सुप्रभातम् मन्त्रालये सुरुचिरे वरतुङ्गभद्रा श्रीरङ्गते सकलदैवत सन्निभाले वृन्दावने निवसते गुरवेत्ति सोऽहम् श्रीराघवेन्द्र भवतः सुप्रभातम् सन्तान सम्पदति शुद्ध विरक्ति भक्ति विज्ञान मुक्ति मुख सर्व फल प्रदातः भाग्येह सौस्तव कराति पवित्र मूर्ते श्रीराघवेन्द्र भवतः तव सुप्रभातम् चिन्तामणिःसुरतरुस्तुरधेनु पूर्वा भक्ते सदान कुशले त्वयि नम्रनम्रा धीये पदे समभिषिच्य समर्चयन्ति श्रीराघवेन्द्र भवतः तव सुप्रभातम् नानत्ति भक्ति भरपूरित दासगोषिम् विस्मृत्य देहमुत लोकमिमम् स्मरन्ति त्वाम् स्मारयन्त्यतुल नारद दान गोष्ठिम् श्रीराघवेन्द्र भवतः तव सुप्रभातम् खञ्जोऽपि भावति जगः कविताम् विभक्ते मोहोऽपि वत्ति बहु पश्यति सर्वबन्धः येन शृणोति कृपया तव पश्य लीलाम् श्रीराघवेन्द्र भवतः तव सुप्रभातम् वृन्दावनेषु जगतीतलमध्ययेषु सर्वेषु सन्निहितया बहुरम्यमूर्त्या सर्वे समाकलय सन्त्यज भूमिशय्या श्रीराघवेन्द्र भवतः तव सुप्रभातम् श्रीकृष्णभक्तिमतुलामवलम्ब्यमाने सर्वास्ति शक्तिरिति लिङ्गिमघोषपूर्वम् यो भूबुधस्वमहिमातिशय प्रकाशैः श्रीराघवेन्द्र भवतः तव सुप्रभातम् त्वाम् त्वत्समम् स्वसदृशम् भवतः प्रभावम् दृष्ट्वा जहाति जनता खलु नास्तिकत्वम् आस्तिक्यवर्धन जगद्गुरुवर्य भूमान् श्रीराघवेन्द्र भवतः तव सुप्रभातम् ऐरावतप्रमुखदैवतवाहनानि सिद्धानि सर्वविबुधैर्यभियापितानि एषु स्थितो महिषतो दिशभक्तकामान् श्रीराघवेन्द्र भवतः तव सुप्रभातम् एतेऽपि भक्तिभरितास्तु जयेन्द्रतीर्था वृन्दावनोद्भव समाकृषते महेऽस्मिन् अञ्चन्ति हेम कवचेन गुरो समेहि श्रीराघवेन्द्र भवतः तव सुप्रभातम् श्रीराघवेन्द्र भवतः तव सुप्रभातम् तत्सुप्रभातपठनस्य सुखम् प्रभातम् भूया त्वदीय कृपया मम सुप्रभातम् त्वत्सुप्रभातकवनस्य च सुप्रभातम् श्रीराघवेन्द्र भवतः तव सुप्रभातम् तत्सुप्रभातपठनस्य सुखम् प्रभातम् भूया त्वदीय कृपया मम सुप्रभातम् त्वत्सुप्रभातकवनस्य च सुप्रभातम् यो नो धृतः पापकोपा लक्ष्मीनारायणाभिधः अञ्जाम्यहमुपाध्यायः सुप्रभातेन सद्गुरु
श्रीमदप्पणाचार्यकृत श्रीराघवेन्द्रस्तोत्रम्
श्रीपूर्णबोधगुरुपीठतयोधिपारा कामादिमाक्षविषमाक्षतिरस्पृशन्ति पूर्वोत्तरामिततरङ्गचरत्सुहंसा देवाडिसेवितपराङ्घ्रिपयोजनग्ना जीवेशभेदगुणपूर्तिजगत्सु सत्त्वा नीतोच्च भावमुखनक्र गणैस्तमेता దుర్వార్య జాపతి గిలై గురు రాఘవేంద్ర వాదేవతాకరిదమం విమలీకరోతు శ్రీ రాఘవేంద్ర సకల ప్రదాత స్వపాద సంజద్వయ భక్తి మధ్యః అఖాతి సంభేదన దృష్టి వజ్రః క్షమా సురేంద్రోవతు మాం సదాయం శ్రీరాఘవేంద్రో హరిపాద సంజ నిషేవనాల్లబ్ధ సమస్త సంపత్ దేవస్వభావో దివిగద్రుమోయం ఇష్ట ప్రదోరే సతతం సభూయాత్ భవ్యస్వరూపో భవ దుఃఖకూల సంఘాగ్నిచర్య సుఖ ధైర్యశాలి సమస్త దుష్టగ్రహ నిగ్రహేశో దురత్యయోపప్లవ సింధు సేతు నిరస్త దోషా నిరవద్య వేష ప్రత్యభిమూకత్వ నిదాన భాష విద్వత్ పరిజ్ఞేయ మహావిశేషో వాగ్వైఖరీ నిర్దిత భవ్యశేష సంతాన సంపత్ పరిశుద్ధ భక్తి విజ్ఞానవాదేహ సుపాకవాదీన్ దత్వా శరీరోత్థ సమస్త దోషాన్ హత్వా సనో వ్యాద్గురురాఘవేంద్ర యత్పాదోగత సంచయ సురనదీ ముఖ్యాపదాసాదిత సంఖ్యానుత్తమ పుణ్య సంఘ విలస ప్రఖ్యాత పుణ్యావహ దుష్టాపత్యయ నాశనో భువి మహాబంధాసు పుత్ర ప్రదో వ్యంగస్వంగ సమృద్ధిదో గ్రహ మహాపాపావహస్తంత్రయే యత్పాద కంజరజసా పరిభూషికాంగా యత్పాద పద్మమధుపాయితమానసాయే యత్పాద పద్మ పరికీర్తన జీర్ణ వాచః తద్దర్శనం దురితకాననదావభూతం సర్వతం ప్రస్వతంత్రోసం శ్రీమధ్వమతవర్ధనః విజయేంద్రకరాబ్జోత్థ సుధీంద్రవరపుత్రకః శ్రీరాఘవేంద్రో యతిరాట్ గురుర్మేత్యాధ్వయాపహః జ్ఞానభక్తిసుపుత్రాయుః యశస్వీ పుణ్యవర్ధనః ప్రతివాదిజయస్వాంత భేదసింహాదరో గురుః సర్వవిద్యా ప్రవీణోన్యో శ్రీరాఘవేంద్రాన్న విద్యతే అపరోక్షీకృత స్త్రీశః సముపేక్షిత భావజః అపేక్షిత ప్రదాతార్యో శ్రీరాఘవేంద్రాన్న విద్యతే దయా దాక్షిణ్య వైరాగ్య వాక్పాటవముఖాంకితః శాపానుగ్రహ శక్తోన్యో శ్రీరాఘవేంద్రాన్న విద్యతే అజ్ఞాన విస్మృతిభ్రాంతి సంశయాపస్మృతిక్షయా చంద్రాకంపవచః సౌఖ్య ముఖాయేషేంద్రియోద్భవా దోషాశ్రేనాశమాయాంతి రాఘవేంద్ర ప్రసాదతః శ్రీరాఘవేంద్రాయ నమః ఇత్యస్తాక్షరమంత్రతః జపితాద్భావితాన్ నిత్యం ఇష్టాధ్యాస్యుర్న సంశయః హంతు నః కాయజాన్ దోషాన్ ఆత్మాత్మేయ సముద్భవాన్ సర్వానపి పుమర్థాంశ్చ దదాతు గురురాత్మవిత్ ఇది కాలత్రయే నిత్యం ప్రార్థనాం యః కరోతి సః ఇహాముత్ప్రాప్త సర్వేష్టో మోదతేనాత్ర సంశయః అగమ్యమహిమాలోకే రాఘవేంద్రో మహాయశాః శ్రీమధ్వమత దుర్భాభి చంద్రోవతు సదా నఖః సర్వయాత్రా ఫలావాప్యై యథాశక్తి ప్రదక్షిణం करोमि तव सिद्धस्य वृन्दावनगतम् जलम् शिरसा धारयाम्यद्य सर्वतीर्थफलाप्रये सर्वाभीष्टार्थसिद्ध्यर्थम् नमस्कारम् करोम्यहम् तव सङ्कीर्तनम् वेदशास्त्रार्थज्ञानसिद्धये संसारे क्षयसागरे प्रकृतितो गाधे सदा दुस्तरे सर्वावद्य जलग्रहैरनुपमैः कामादिभङ्गाकुले नानादिभ्रमदुर्भ्रमे मितभयस्तोमादिधेनोत्कटे दुःखोत्कृष्टविशेषमुद्धर गुरो मामज्ञरूपम् सदा राघवेन्द्रगुरुस्तोत्रम् यः पठेत् भक्तिपूर्वकम् तस्य कुष्ठादिरोगाणाम् निवृत्तिस्त्वरया भवेत् अन्धोऽपि दिव्यदृष्टिः स्यात् जेढमूकोऽपि वाक्पतिः पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्यास्य जपाद् भवेत् यः पिबेत् जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत्क्षणात् यद्वृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वा जनः स्तोत्रेणानेन यः कुर्यात् प्रदक्षिणनमस्कृतिः स जङ्घालो भवेदेव गुरुराजप्रसादतः सोमसूर्योपरागे च पुष्यार्कादिसमागमे योऽनुत्तममिदम् स्तोत्रम् अष्टोत्तरशतम् जपेत्।